महाभूतान्यहंकारः बुद्धिरव्यक्तमेव च इन्द्रियाणि दशैकञ्च पञ्चचेन्द्रियगोचराः इच्छा द्वेषः सुखं दुःखं संघातश्चेतनाधृतिः एतत्क्षेत्रं समासेन सविकारमुदाहृतम्।